శంకరం విష్ణుం శశివర్ణం చతుర్భుజం ప్రసన్నవదనం ధ్యాయేత్ సర్వవిఘ్నోపశాంతయే శ్రీమహాగణపతయే నమః మతితాం వరదాం చైవ సర్వకామఫలప్రదాం కేశవస్య ప్రియాం దేవీం వేణహస్తాం వరప్రదాం మంత్రప్రియాం సదా హృద్యాం కుమతిధ్వంసకారిణీం స్వప్రకాశాం నిరాలంబమజ్ఞానతిమిరాపహాం శ్రీసరస్వత్యై నమః ప్రాతస్మరామి గణనాథమనాథబంధుం సింధూరపూరపరిశోభితగండయుగ్మం ఉద్దండవిఘ్నపరిఖండనచండదండం ఆఖండలాదిసురనాయకవృందవంద్యం ప్రాతన్నవామి చతురాననవంద్యమానం ఇచ్చానుకూలమఖిలం చ వరం దదానం తుందిలం విరసన ప్రియయజ్ఞసూత్రం పుత్రం విలాస చతురం శివయో శివాయ ప్రాదర్భజామ్యభయదం ఖలు భక్తశోక దావానలం గణవిభుర్వరకుంజరాస్యం అజ్ఞానకానన వినాశన హవ్యవాహం ఉత్సాహవర్ధనమహం సుతమీశ్వరస్య శ్లోకత్రయమిదం పుణ్యం సదా సామ్రాజ్యదాయకం ప్రాతరుత్థాయ సతతం యః పఠేత్ ప్రయతః పుమాన్ ప్రాతస్మరామి భవభీతి మహార్తి శాంతే నారాయణం గరుడవాహనమబ్జనాభం గ్రహాభిభూతవరవారణముక్తిహేతుం చక్రాయుధం తరుణవారిజపత్రనేత్రం ప్రాతన్నవామి మనసా వచసా చ మూర్ధా పాదారవిందయుగలం పరమస్య పుంసః నారాయణస్య నరకార్ణవతారణస్య పారాయణ ప్రవణ విప్రపరాయణస్య ప్రాదర్భజామి భజతామభయంకరంతం ప్రాక్ సర్వజన్మ కృత పాప భయాపహత్యై యోగ్రాహవక్త్రపతితాం ఘ్రిగజేంద్రఘోర శోక ప్రణాశమకరో ధృత శంఖ చక్రః శ్లోకత్రయమిదం పుణ్యం ప్రాతఃకాలే పఠేత్తు యః లోకత్రయ గురుస్తస్మై దద్యాదాత్మపదం హరిః ప్రాతస్మరామి రఘునాథముఖారవిందం మందస్మితం మధురభాషిమి శారభాలం కర్ణావలం విచలకుండలశోభిగండం కర్ణాంతదీర్ఘనయనం నయనాభిరామం ప్రాతర్భజామి రఘునాథకరారవిందం రక్షోగణాయ భయదం వరదం నిజేభ్యః యద్రాజసం సది విభజ్య మహేష చాపం సీతాకరగ్రహణమంగళమాప సద్యః ప్రాతన్నవామి రఘునాథ పదారవిందం పద్మాంకుశాది శుభరేఖి సుఖావహం మే యోగీంద్రమానసమధుం వ్రత సేవ్యమానం శాభాపహం సపది గౌతమ ధర్మపత్న్యాః ప్రాతర్వదామి వచసా రఘునాథ నామ వాగ్దోషహాని సకలం కమలం కరోతి యత్ పార్వతీ స్వపదినా సహ భోక్తు కామ ప్రీత్యా సహస్ర హరినామ సమంజ జాప ప్రాతశ్రయే శ్రుతినుతాం రఘునాథమూర్తిం నీలాంబుజోత్పలసితేతరత్ననీలాం ఆముత్తమౌక్తిక విశేష విభూషణాఢ్యాం ధ్యేయాం సమస్తమునిభిర్జనముక్తిహేతుం यश्लोकपञ्चकमिदम् प्रयतः पठेत्तु नित्यम् प्रभातसमये पुरुषः प्रबुद्धः श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयासि हरिलोकमनन्यलभ्यम् प्रातस्परामि खलु तत्सवितुर्वरेण्यम् रूपम् हि मण्डलभृजोखतनुर्यजूंषि सामानियस्य किरणाः प्रभवादिहेतुम् ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् प्रातम् नमामि तरणिम् तनुवाङ्मनोभि ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्जितम् च वृष्टिप्रमोचनविनिग्रहहेतुभूतम् त्रैलोक्यपालनपरम् त्रिगुणात्मकम् च प्रातर्भजामि समितारमनन्तशक्तिम् पापौघशत्रुभयलोकहरम् परम् च तम् सर्वलोककलनात्मककालमूर्तिम् गोकण्ठबन्धनविमोचनमादिदेवम् श्लोकत्रयमिदम् भानोः प्रातः पठेत्तु यः स सर्वव्याधिनिर्मुक्तः परम् सुखमवाप्नुयात् प्रातस्मरामि भवभीतिहरम् सुरेशम् गङ्गाधरम् वृषभवाहनमम्बिकेशम् खड्गाङ्गशूलवरदाभयहस्तमीशम् संसाररोगहरमौषधमद्वितीयम् प्रातर्नमामि गिरिशम् गिरिजार्धदेहम् सर्गस्थितिप्रलयकारणमादिदेवम् विश्वेश्वरम् विजितविश्वमनोभिरामम् संसाररोगहरमौषधमद्वितीयम् प्रातर्भजामि शिवमेकमनन्दमाद्यम् वेदान्तवेद्यमनघम् पुरुषम् महान्तम् नामादिभेदरहितम् षड्भावशून्यम् संसाररोगहरमौषधमद्वितीयम् प्रातः समुत्थाय शिवम् विचिन्त्य श्लोकत्रयम् येनुदिनम् पठन्ति ते दुःखजातम् बहुजन्म सञ्चितम् हित्वा पदम् जान्ति तदेव शम्भोः इन्द्र उवाच नमस्तेऽस्तु महाभागे श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते नमस्ते गरुडारूढे कोलासुरभयङ्करी सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करी सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते आद्यन्तरहिते देवि आदिशक्तिमहेश्वरी योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे महापापहरे देवि महालक्ष्मि नमोऽस्तु ते पद्मासनस्थिते देवि परब्रह्मस्वरूपिणी परमेश जगन्मातर्महालक्ष्मि नमोऽस्तु ते श्वेताम्बरधरे देवि दानालङ्कारभूषिते जगस्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते महालक्ष्म्याष्टकस्तोत्रञ्जः पठेत् भक्तिमान्नरः सर्वसिद्धिमवाप्नोति राज्यम् प्राप्नोति सर्वदा एककालम् पठेन्नित्यम् महापापविनाशनम् विकालय्यः पठेन्नित्यम् धनधान्यसमन्वितः त्रिकालय्यः पठेन्नित्यम् महाशत्रुविनाशनम् महालक्ष्मीर्भवेन्नित्यम् प्रसन्ना वरदाम् शुभाम्। इन्द्र उवाच समस्तकवचानाम् तु तेजस्वि कवचोत्तमम् आत्मरक्षणमारोग्यम् सत्यम् त्वम् ब्रूहि गीष्मते। श्रीगुरुरुवाच महालक्ष्म्यास्त्व कवचम् प्रवक्ष्यामि समासतः चतुर्दशसु लोकेषु रहस्यम् ब्रह्मणोदितम्। ब्रह्मोवाच शिरो मे विष्णुपत्ने च ललाटममृतोद्भव चक्षुषे सुविशालाक्षे श्रवणे सागराम्बुज घ्राणम् पातु वरारोहा जिह्वा वाग्नाय रूपिणे मुखम् पातु महालक्ष्मीः कण्ठम् वैकुण्ठवासिनी स्कन्धो मे जानकी पातु भुजौ भार्गवनन्दिनी बाहोद्वौ द्रविणे पातु करौ हरिवराङ्गना वक्षः पातु च श्रीर्देवी हृदयम् हरिसुन्दरी कुक्षिम् च वैष्णवी पातु नाभिम् भुवनमातृका कटिम् च पातु वाराही स्वच्छिनी देवदेवता भूरो नारायणी पातु जानुनी चन्द्रसोदरी इन्दिरा पातु जङ्घे मे पातु भक्तनमस्कृता नखान्तेजस्विनी पातु सर्वाङ्गम् करुणामयी ब्रह्मणा लोकरक्षार्थम् निर्मितम् कवचम् श्रियः ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये कवचेनावृताङ्गानाम् जनानाम् जयता सदा मा देव सर्वसुखदा भव त्वमरेश्वरी भूयः सिद्धिमवाप्नोति पूर्वोक्तम् ब्रह्मणा स्वयम् लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयम् स्मरेत् नामत्रयमिदम् जप्त्वा स याति परमाम् श्रियम् यः पठेत् स च धर्मात्मा सर्वान् कामानवाप्नुयात्। बृहस्पतिरुवाच सरस्वती नमस्यामि चेतनाम् हृदि संस्थिताम् कण्ठस्थाम् पद्मजो नित्ताम् ह्रीङ्काराम् सुप्रियाम् सदा मदिदाम् वरदाम् चैव सर्वकामफलप्रदाम् केशवस्य प्रियाम् देवीम् वीणहस्ताम् वरप्रदाम् मन्त्रप्रियाम् सदा हृद्याम् गुमतिद्धम् सकारिणीम् स्वप्रकाशाम् निरालम्बमज्ञानतिमिरापहाम् मोक्षप्रियाम् शुभाम् नित्याम् सुभगाम् शोभनप्रियाम् पद्मापविष्टाम् कुण्डलिनीम् शुक्लवस्त्राम् मनोहराम् आदित्यमण्डलेलीनाम् प्रणमामि जनप्रियाम् ज्ञानकरीम् जगद्दीपाम् भक्तविघ्नविनाशिनीम् इति सत्यम् स्तुता देवी वागीशेन महात्मना आत्मानम् दर्शयामास शरदिन्दुसमप्रभाम्। श्रीसरस्वत्युवाच वरम् वृणीष्व भद्रन्ते यत्ते मनसि वर्तते। बृहस्पतिरुवाच प्रसन्ना यदि मे देवी परम् ज्ञानम् प्रयच्छ मे। श्रीसरस्वत्युवाच दत्तम् ते निर्मलम् ज्ञानम् गुमतिध्वंसकारकम् स्तोत्रेणानेन माम् भक्ता ये स्तुवन्ति च माम् नराः लभन्ते परमम् ज्ञानम् मम तुल्यपराक्रमाः कवित्तम् मत्प्रसादेन प्राप्नुवन्ति मनोगतम् त्रिसन्ध्यम् प्रयतो भूत्वा यस्ति मम् पठते नरः तस्य कण्ठे सदा वासं करिष्यामि न संशयः। नमस्तेऽस्तु दुर्गे सदानन्दरूपे सुरैस्तूयमाने मुनीनां सुपूज्ये। नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते भवाम्बोधिसन्तारदक्षे। नमस्ते नमस्ते सदा देवते ज्ये तथा दीनदुःखे दयाक्रान्तचित्ते। नमस्ते महादेव मान्ये भवानि सुदीनं स्वदानं जनं पाहि शश्वत्। नमस्ते जगद्व्यापिके विश्वरूपे सदा योगि गम्ये स्वभक्तैकलभ्ये। नमः शारदा शम्भुकान्तास्वरूपे नमस्ते महाकालिके शुद्धरूपे। नमस्ते अम्बिके भक्तसंसेव्यपादे नमस्ते अघध्वंसिके सर्वशक्ते। जगत्कानने क्रोधकामादिहिंस्रैः परीतोऽस्मि मातः सदा रक्ष रक्ष। नमस्ते जगद्बीजरूपे महेशि स्वभक्तेषु रक्ते शरण्ये त्रिनेत्रे। त्वदन्या न चास्ते विपन्नाशकारी सुसम्पत्प्रदां त्वां सदा सन्नितोऽस्मि। अहं देवि याचे पदां भोजसेवां भवत्यास्तथा भक्तिभावं भवेद्ये। प्रसीदां बभासे सदा शैलपुत्री शिवां शङ्करीं पार्वतीं त्वां भजामि। त्वदन्यो न मान्यो न चान्यश्च गण्यस्त्वमेकासि मातर्जगज्जालहेतुः। जगन्नाशिका बालिका च त्वमेव गिरेर्बालिकां कालिकां सन्नतोऽहम्। श्रियं शारदां शम्भुशक्तिं महेशीं त्रिनेत्रां च दुर्गां तथा कालरात्रिम्। तुषारात्रिपुत्रीं जगद्दुःखहन्त्रीं स्मरं दुःखनाशो भवेन्मानवानाम्। इदं स्तोत्रं महादेव्या योगानन्देन निर्मितं। यः पठेत् प्रातरुत्थाय स नरो वाञ्छितं लभेत्। स्कन्दौ उवाच योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कन्दः कुमारसेनानी स्वामी शङ्करसम्भवः। गाङ्गेयास्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः। शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः। शरजन्मागणाधीशः पूर्वजो मुक्तिमार्गकृत्। सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः। अष्टाविंशति नामानि मदीजानीति यः पठेत्। प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्। महामन्त्रमजानीति मम नामानुकीर्तनम्। महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा। लोपामुद्रा उवाच कुम्भोद्भवदया सिन्धोश्रुतं हनुमतः परम्। यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया। दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे। कवचं वायुपुत्रस्य एकादशमुखात्मनः। इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितं वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः। अगस्त्य उवाच नमस्कृत्वा रामदूतं हनुमन्तं महामतिम्। ब्रह्मपोक्तं तु कवचं शृणु सुन्दरि सादरं सनन्दनाय समहच्चतुरानभाषितं। कवचं कामदं दिव्यं रक्षः कुलनिबर्हणं सर्वसम्पत्प्रदं पुण्यं भक्तानां मधुरस्वरे। अस्य श्रीकवचस्यैकादश वक्त्रस्य धीमतः हनुमत्स्तुतिमन्त्रस्य सनन्ददर्शिस्मृतः प्रसन्नाता हनुमांश्च देवता परिकीर्तिताः छन्दोऽनुष्टुप्समाख्यातम् बीजम् वायुसुतस्तथा मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः सर्वकामार्थसिद्ध्यर्थम् जप एवमुदीरयेत् ॐ स्फ्रें बीजम् शक्तिधृक्पातु शिरो मे पवनात्मजः ह्रौं बीजात्मनयनयोः पातु माम् वानरेश्वरः क्षं बीजरूपः कर्णौ मे सीताशोकविनाशनः क्लौं बीजवाच्यो दासाम् मे लक्ष्मणप्राणदायकः बम्बीजार्थश्च कण्ठम् मे पातु चाक्षयकारकः राम् बीजवाच्यो हृदयम् पातु मे कपिनायकः बम्बीजकीर्तितः पातु बाहु मे चाञ्जनीसुतः ह्रीम् बीजो राक्षसेन्द्रश्च दर्पः पातु चोदरम् असौम् बीजमयो मध्यम् पातु लङ्काविदाहकः ॐ ह्रीम् बीजधरः पातु कुत्यम् देवेन्द्रवन्दितः रं बीजात्मा सदा पातु चोरो मे वार्तिलङ्घनः सुग्रीवसजिवः पातु जानुनी मे मनोजवः पादौ पादतले पातु द्रोणाचलधरो हरिः आपादमस्तकम् पातु रामदूतो महाबलः पूर्वे वानरवक्त्रो मामाग्नेयान् क्षत्रियान्तकृत् दक्षिणे नारसिंहस्तु नैर्वृद्धाङ्गणनायकः वारुण्यान् दिशि मामव्यात् खगवक्त्रो हरीश्वरः वायव्याम् भैरवमुखः कौबेर्याम् पातु माम् सदा कोट्यास्य पातु माम् नित्यमीशान्याम् रुद्ररूपधृग् ऊर्ध्वम् हजानदः पातु गुह्याथः सुमुखस्तथा रामास्य पातु सर्वत्र सौम्यरूपो महाभुजः इत्येवम् रामदूतस्य कवचय्यः पठेत् सदा एकादशमुखस्तैरद्गोप्यन्ते कीर्तितम् मया रक्षोऽघ्रम् गामदम् सौम्यम् सर्वसम्पद्विधायकम् पुत्रदन्धनदम् चाग्रशत्रुसङ्घविमर्दनम् स्वर्गापवर्गदम् दिव्यम् चिन्तितार्थप्रदम् शुभम् एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते चत्वारिंशत्सहस्राणि पठेत् शुद्धात्मको नरः एकवारम् पठेन्नित्यम् कवचम् सिद्धिदम् पुमान् द्विवारम् वा त्रिवारम् वा पठन्नायुष्यमाप्नुयात् क्रमादेकादशादेव भावर्तनजपात् सुधीः वर्षान्ते दर्शनम् साक्षाल्लभते नात्र संशयः ययुम् यम् चिन्तयते चार्थम् तम् तम् प्राप्नोति पूरुषः ब्रह्मोदीरितमेतद्धितवाग्रे कथितम् महत् महादेव उवाच शृणुते विप्रवक्ष्यामि स्तोत्रम् परमदुर्लभम् यज्ञात्वा न पुनर्गच्छेन्नरो गिरयजातनाम् नारदाय च यत्प्रोक्तम् ब्रह्मपुत्रेण धीमता सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना श्रीनारद उवाच प्रसीद भगवन् मह्यमज्ञानात् कुण्ठितात्मने तवाङ्घ्रिपङ्कजरजो रागिणीम् भक्तिमुत्तमाम् अज प्रसीद भगवन्नमितद्युतिपञ्जर अप्रमेय प्रसीदास्त्वद्दुःखहन् पुरुषोत्तम ससंवेद्य प्रसीदास्पदानन्दात्मन्ननामया अचिन्त्यसार विश्वात्मन् प्रसीद परमेश्वर प्रसीद तुङ्गतुङ्गानां प्रसीद शिवशोभना प्रसीद गुणगम्भीर गम्भीराणां महाच्युते प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामगोचर प्रसीदार्द्रादजातीनां प्रसीदान्तान्तदादिनां गुरार्कदीयः सर्वेश प्रसीदानन्ददेहिनां जय माधव माजात्मन् जय शाश्वत शङ्खभृते जय शङ्खधर श्रीमञ्जय नन्दकनन्दन जय चक्रगदापाणे जय देवजनार्दन जय रत्नपदाबद्धकिरीटाक्रान्तमस्तक जय पक्षिमतिच्छाया निरुद्धार्गकरारुण नमस्ते नरगादाते नमस्ते मधुसूदन नमस्ते ललितापाङ्ग नमस्ते नरकान्तक नमः पापहरे चार नमः सर्वभयापह नमः सम्भूत सर्वात्मन् नमः सम्भृत कौस्तुभ नमस्ते नयनातीत नमस्ते भयहारक नमो विभिन्न वेषाय नमः श्रुतिपथातिग नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे विष्णवे त्रिदशादाति जिष्णवे परमात्मने चक्रभिन्नाय चक्राय चक्रिणे चक्रवल्लभ विश्वाय विश्वभञ्जाय विश्वभूतानुवर्तिने नमोऽस्तु योगिध्येयात्मन् नमोऽस्त्वध्यात्मरूपिणे भक्तिप्रदाय भक्तानां नमस्ते भक्तिदायिने पूजनं हवजं चेत्याध्यानं पश्चान्नमस्क्रिय देवेश कर्म सर्वं मे भवेदाराधनं तव इति हवन जपाश्च भेदतो विष्णुपूजा नियत हृदय कर्मायस्तु बन्द्रे चिदाय स खलु सकलकामान् प्राप्य कृष्टान्तरात्मा जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति गोगोपगोपिकामीतं गोपादङ्गोशुगोप्रदम् गोपैरेड्यं गोसहस्रैर्नौमि गोकुलनायकम् क्रीडजेदनजास्तुत्या जगन्नाथं जगन्मयम् धर्मार्थकाममोक्षाणावाप्तजे पुरुषोत्तमम् ओ नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् वीणा च दुःसहाराजं जायते सततन्द्रणां वीणानाशाय राजेन्द्रनामानि शृणु भावतः सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः आदित्यः सविता सूर्यः पूषार्कः शीघ्रगौरविः भगस्त्वष्टार्यबाहं सोलेलिस्तेजोनिधिर्हरिः दिननाथो दिनकरः सप्त सप्तिः प्रभाकरः विभाव सर्ववेदकर्ता वेदाङ्गो वेदवाहनः हरिदश्वः कालवक्त्रः कर्म साक्षी जगत्पतिः पद्मिनीबोधको भानुर्भास्करः करुणाकरः द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोऽनुदः जगन्नाथोरविन्दाक्षः कालात्मा कश्यपात्मजः भूताश्रयोग्रहपतिः सर्वलोकनमस्कृतः जपाकुसुभसङ्काशो भास्वानदिति नन्दनः द्वान्देभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः मार्तण्डो महिरस्तोरस्तपदो लोकतापनः जगत्कर्ता जगत्साक्षी शनैश्चर पिता जयः सहस्ररश्मिस्तरणिर्भगवान् भक्तवत्सलः विवस्वानादिदेवश्च देवदेवो दिवाकरः धन्वन्तरिर्व्याधिहर्ता दत्रपुष्ठविनाशनः चरौ चरात्मा वैत्रेजो मितो विष्णुरुविकर्तनः लोकशोकापहर्ता च कमलाकर आत्मभूः नारायणो महादेवो रुद्रः पुरुष ईश्वरः जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतो मुखः इन्द्रो नदो यभश्चैव निरुतो वरुणो निलः श्रीत ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः शौरिर्विदुन्दुदः केतुः कालः कालात्मको विभुः सर्वदेवमयो देवः कृष्णः कामप्रदायकः य एतैर्नामभिर्मत्यो भक्त्या स्तौति दिवाकरम् सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः पुत्रवान् धनवान् श्रीमान् जायते स न संशयः रविवारे पठेत्यस्तु नामान्येतानि भास्वतः पीडाशान्तिर्भवेत्तस्य ग्रहाणाम् च विशेषतः सद्यः सुखमवाप्नोति चायुर्दीर्घम् च नीरुजम् चन्द्रस्य शृणुदामानि शुभदानि महीपते यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः सुधाकरश्च सोमश्च गौरव्यः कुमुदप्रियः लोकप्रियश्चुभ्रभानश्चन्द्रमारोहिणीपतिः शशिः मकरो राजा द्विजराजो निशाकरः आत्रेज इन्दुश्चीतां शुरोषधीशः कलानिधिः जैवात्रको रमाभ्राता क्षीरोदार्ण्डवसम्भवः नक्षत्रनायकं शम्भुशिरश्चोडामणिर्विभुः तापहर्ता नभो दीपो नामान्येतानि यः पठेत् प्रत्यहम् भक्तिसंयुक्तस्तस्य पीडा विनश्यति तद्दिने च पठेत्यस्तु लभेत् सर्वम् समीहितम् ग्रहादीनाम् च सर्वेषाम् भवेच्चन्द्रबलम् सदा अङ्गारकशक्तिधुरो लोहिताङ्गाधरासुतः कुमारो वङ्गदो भौमो महाकायो धनुप्रदः ऋणहत्ता सृष्टिकर्ता रोगकृद्रोगनाशनः विद्युत्प्रभो प्रणकरः कामदोधनहृत्कुजः सामगानप्रियो रक्तवस्त्रो रक्तायते क्षणः लोहितो रक्तवर्णश्च सर्वकर्मावरोधकः रक्तमाल्यधरो हेमकुण्डलीग्रहनायकः नामान्येतानि भौमश्च यः पठेत् सततम् नरः ऋणन्तस्य च दौर्भाग्यम् दारिद्र्यम् च विनश्यति धनम् प्राप्नोति विपुलम् स्त्रियम् चैव मनोरमाम् वंशोद्योपकरम् पुत्रम् लभते नात्र संशयः योर्चयेदन्हि भौमस्य मङ्गलम् बहुपुष्पकैः सर्वानच्छति पीडा च तस्य ग्रहकृताध्रुवम् बुधो बुद्धिमताम् श्रेष्ठो बुद्धिदाता धनप्रदः प्रियङ्गुकलिकाश्चामः कञ्चनेत्रो मनोहरः ग्रहोपमो रौहिणेयो नक्षत्रेशोदयाकरः विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः ग्रहपीडाहरोदारपुत्रधान्यपशुप्रदः लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् स्मृत्वा बुधम् सदा तस्य पीडाः सर्वा विनश्यति तद्दिने वा पठेद्यस्तु लभते स मनोगतम् गुरुर्बृहस्पतिर्जीवस्तुराचार्यो विताम्बरः वागीशोऽधिषडो दीर्घश्मश्रुः पीताम्बरो युवा सुधा दृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः दयाकरः सौम्यमूर्तिः सुरार्चः कुङ्कुमद्युतिः लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः तारापतिश्चाङ्गिरसो वेदवैद्यपितामहः भक्ता बृहस्पतिम् स्मृत्वा नामान्येतानि यः पठेत् अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः जीवेत्वर्षशतम् वर्तः पापम् नश्यति नश्यति यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः पुष्पदीपापहारैश्च पूजयित्वा बृहस्पतिम् ब्राह्मणान् भोजयित्वा च पीडा शान्तिर्भवेद्गुरोः नमस्ते भार्गवश्रेष्ठदैत्यदानवपूजिता वृष्टिरोधप्रकर्ते च वृष्टिकर्त्रे नमो नमः देवजानीपितस्तुभ्यम् वेदवेदाङ्गपारक परेण तपसा शुद्धः शङ्करो लोकसुन्दरः प्राप्तो विद्याञ्जीवनाख्याम् तस्मै शुक्रात्मने नमः नमस्तस्मै भगवते भृगुपुत्राय मेधसे तारामण्डलमध्यस्थ स्वभासा भासिताम्बर यस्योदये जगत्सर्वम् मङ्गलार्हम् भवेदिह अस्मै याते ह्यदिष्टम् स्यात् तस्मै मङ्गलरूपिणे त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् विद्यया जीव यच्छक्र नमस्ते भृगुनन्दन जयाति गुरवे तुभ्यम् नमस्ते कविनन्दन बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः भार्गवाय नमस्तुभ्यम् पूर्वगीर्वाणवन्दिता जीवपुत्राय यो विद्याम् प्रातात् तस्मै नमो नमः नमश्चक्राय काव्याय भृगुपुत्राय धीमहि नमः कारणरूपाय नमस्ते कारणात्मने स्थवराजमिदम् पुण्यम् भार्गवस्य महात्मनः यः पठेच्छृणुयात्त्वापि लभते वाञ्छितम् फलम् पुत्रकामो लभेत् पुत्रान् श्रीकामो लभते श्रियम् राज्यकामो लभेत् राज्यम् स्त्रीकामस्त्रियमुत्तमम् भृगुवारे प्रयत्नेन पठितव्यम् समाहितैः अन्यवादे तु होरायाम् पूजयेद्भृगुनन्दनम् रोगार्तोमुच्यते रोगात् भयात्तोमुच्यते भयात् यद्यत्प्रार्थयते जन्तस्तत्तत्प्राप्नोति सर्वदा प्रातःकाले प्रकर्तव्या भृगुपूजा प्रयत्नतः सर्वपापमिदम् मुक्तः प्राप्नुयात् शिवसन्निधिम् नारद उवाच ध्यात्वा गणपतिम् राजा धर्मराजा युधिष्ठिरः धीरः शनैश्चरस्येवम् चकारस्तवमुत्तमम् शितो मे भास्करः पातु भातं छायासुतोऽवतु कोटिराक्षो दृशो पातु शिखि कण्ठनिभश्रुति घ्राणं मे भीचनः पातु मुखं बलिमुखोऽवतु स्कन्धौ संवत्तकः पातु भुजौ मे भयदोऽवतु सौरिं मे हृदयं पातु नाभिं शनीश्चरोऽवतु ग्रहराजः कटिं पातु सर्वतो रविनन्दनः पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः रक्षामेतां पठेन्नित्यं सौरेन्नाम बलैर्युताम् सुखी पुत्री चिराजश्च सभवेन्नात्र संशयः सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः शुष्को ददो विशालाक्षो जुर्निरीक्ष्यो विभीषणः शिखि कण्ठनिभो नीलश्छाया हृदयनन्दनः कालदृष्टिः कोडराक्षस्थूलरोमावलीमुखः दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः नीलांशः क्रोधनो रौद्रो दीर्घश्मश्रुजटाधरः मन्दो मन्दगतिः खञ्जो दृप्तः संवर्तको यमः ग्रहराजः करादी च सूर्यपुत्रो रविशशि कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः केतुर्देव पतिर्बाहुः कृतान्तो निररतस्तथा शशी मरुत्कुबेरश्च ईशानः सुर आत्मभूः विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः कर्ता हर्ता बालयिता राज्येषो राज्यदायकः छायासुतश्चाबलाङ्गो धनहर्ता धनप्रदः क्रोधकर्म विधाता च सर्वकर्मावरोधकः तुष्टो रुष्टः कामलोपः कामदोरविनन्दनः ग्रहपीडाहनश्चान्दो नक्षत्रेषु ग्रहेश्वरः स्थिरासनस्थिरगतिर्महाकायो महाबलः महाप्रभो महाकालः कालात्मा कालकालकः आदित्यभयदाता च मृत्युरादित्यनन्दनः शतभिषक्रक्षतयितस्त्रयोदशीतिथिप्रियः तिथ्यात्मकस्थितिगणो नक्षत्रगणनायकः योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः शमी पुष्टप्रियश्चामस्त्रीलोक्याभयदायकः नीलपासाः क्रिया सिन्धुर्नीलाञ्जनच यच्छविः सर्वरोगहरो देवः सिद्धो देवगणस्तुतः अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः पठेन्नित्यं तस्य पीडा समस्तानश्च तिध्रुवम् तृक्तपूजां पठेन्मर्त्यो भक्तिमान् यस्तवं सदा विशेषतश्च निदिने पीडा तस्य विनश्यति जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिके दशासु जगते सौरौ ततास्तवमिमं पठेत् पूजयेद्यश्च निं भक्त्या शमी पुष्पाक्षताम्बरैः विधायदोह प्रतिमां नरे दुःखात् विमुच्यते बाधायाञ्जग्रहाणां च यः पठेत् तस्य नश्यति भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् रोगी रोगाद्विमुच्येत नरं स्तवमिमं पठेत् पुत्रबान्धनवान् श्रीमाञ्जायते नात्र संशयः। नारद उवाच, स्तवम् निशम्य पार्थस्य प्रत्यक्षो भूत्शनैश्चरः। दत्तराज्ञेव रः कामम् शनिश्चान्तर्दधे तदा। राहुर्दानवमन्त्री च सिंहि काचित्तनन्दनः। अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः। रौद्ररुद्रप्रियो दैत्यस्वर्भानुर्भानुभीतिदः। ग्रहराजः सुधापाजी रागादिच्छभिलाषुकः। कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः। विधुन्दुतः सैंहिकेजो घोररूपो महाबलः। ग्रहपीडाकरो दंष्ट्रीरक्तनेत्रो महोदरः। पञ्चविंशतिदापानि स्पृत्वा राहुम् सदा नरः। यः पठेन्महति पीडा तस्य दश्यति केवलम्। आरोग्यम् पुत्रबतुलाम् श्रियम् धान्यम् पशूंस्तथा। ददा हि राहुस्तस्मै यः पठते स्तोत्रमुत्तमम्। सततम् पठते यस्तु जीवे दर्शशतम् नरः। केतुम् करानवदनम् चित्रवर्णम् किरीटिनम्। प्रणमामि सदा केतुम् ध्वजाकारम् ग्रहेश्वरम्। चित्रवर्णश्चिरः पातु भालम् धूम्रसमद्युतिः। पातु नेत्रे पिङ्गलाक्षश्रुति मे रक्तलोचनः। घ्राणम् पातु सवर्णाभश्चिबुकम् सिंहिकासुतः। पातुम् कण्ठम् च मे केतुस्कन्धौ पातु ग्रहाधिपः। हस्तौ पातु सुरश्रेष्ठकुक्षिम् पातु महाग्रहः। सिंहासनः कटिम् पातु बद्धम् पातु महासुरः। ऊरु पातु महाशीर्षो जानुलीमेति कोपनः। पातु पादौ च मे क्रोरः सर्वाङ्गम् नरपिङ्गलः। य इदम् कवचम् दिव्यम् सर्वलोकविनाशनम्। सर्वशत्रुविनाशम् च धारणाद्विजयी भवेत्। ग्रहाणापादिरादित्यो लोकरक्षणकारकः। विषमस्थानसम्भूताम् पीडाम् हरतु मे रविः। रोहिणीशस्तुधामूर्त्यस्तुधा गात्रस्तुधाशनः। विषमस्थानसम्भूताम् पीडाम् हरतु मे विधुः। भूमिपुत्रो महातेज जगताम् भयकृत्सदा। वृष्टिकृद्वृष्टिहर्ता च पीडाम् हरतु मे कुजः। उत्पातरूपो जगताम् चन्द्रपुत्रो महाद्युतिः। सूर्यप्रियकरो वित्तान् पीडाम् हरतु मे बुधः। देवमन्त्रे विचाराक्षः सदा लोकहिते रतः। अनेकशिष्य सम्पूर्णः पीडाम् हरतु मे गुरुः। दैत्यमन्त्रे गुरुस्तेषाम् प्राणदश्च महामतिः। प्रभुस्ताराग्रहाणाम् च पीडाम् हरतु मे भृगुः। सूर्यपुत्रो दीर्घदेहो विषादा च शिवप्रियः। मन्दचारः प्रसन्नात्मा पीडाम् हरतु मे शनिः। महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः। अतनुश्चोर्ध्वकेचश्च पीडाम् हरतु मे शिखि। अनेकरूपवर्णैश्च शतशोथसहस्रशः। उत्पातरूपो जगताम् पीडाम् हरतु मे तमः। नृसिंहकवचम् वक्षे प्रह्लादेनोदितम् पुरा। सर्वरक्षाकरम् पुण्यम् सर्वोपद्रवनाशनम्। सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ध्यात्तादृसिंहं देवेशं हेमसिंहासनस्थितम् विवृतास्यन्द्रिणयनं शरदिन्दुसमप्रभम् लक्ष्म्यालिङ्गितभावाङ्गं विभूतिभिरुपाश्रितम् चतुर्भुजं गोबलाङ्गस्वर्णकुण्डलशोभितम् उरोजशोभितोरस्कं रत्नकेजूरमुद्रितम् तप्तकाञ्जनसङ्काशं पीतनिर्मलवाससम् इन्द्रादिसुरभौरिस्थस्फुरन् वाणिक्यदीप्तिभिः विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः गरुत्मता स विनयं स्तूयमानं मुदान्वितम् स्वहृत्कमलसंवासं दत्त्वा तु कवचं पठेत् नृसिंहो मे चिरः पातु लोकरक्षात्मसम्भवः सर्वतोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् नृसिंहो मे दृशो पातु सोमसूर्याग्निलोचनः स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः आसां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्याधिपः पातु नृसिंहोरसनां मम वक्त्रं पात्बिन्दुवदनः सदा प्रह्लादवन्दितः नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ररौ मे देववरदो नृसिंहः पातु सर्वतः हृदयं ज्योतसाध्यश्च निवासं पातु मे हरिः मध्यं पातु हिरण्याक्षभक्षः कुक्षिविदारणः नाभिं मे पातु नृहरिस्वनाभिब्रह्मसंस्तुतः ब्रह्माण्डकोटियः कट्यां यस्यासौ पातु मे कटिम् गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ऊरु मनोभवः पातु जानुदीनररूपधृक् जङ्घे पातु नराभारहर्ता योऽसौ नृकेसरी सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः महाविष्णुर्दक्षिणे तु महाज्जालस्त्वनैरृतौ पश्चिमे पातु सर्वेषो दिशि मे सर्वतो मुखः नृसिंहः पातु वाजव्यां सौम्यां भूषणविग्रहः ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः संसाराभयदः पातु मृत्योर्मृत्युर्नृकेसरी इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घ्याजुरुपजायते यञ्जं कामयते कामन्तं तं प्राप्नोत्यसंशयम् सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूम्यान्तरिक्षदिव्यानां गहाणां विनिवारणम् वृष्टिकोदकसम्भूतविशापहरणं परम् ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् भूर्जे वातादपत्रे वा कवचं लिखितं शुभम् कदमूले धृतं येन सिद्धेयुः कर्म सिद्धयः देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति त्रिंशत्सहस्राण पठेच्छुद्धात्मनान्द्रणाम् कवचस्यास्य बन्ध्वस्य बन्ध्रसिद्धिः प्रजायते अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् तिलकम् विन्यसेद्यस्तु तस्य ग्रहभयम् हरेत् त्रिवारम् जपमानस्तु दत्तम् वार्यभिमन्त्र्य च प्राशयेद्यो नरो मन्त्रम् नृसिंहध्यानमाचरेत् तस्य रोगाः प्रणश्यन्ति एजस्युः कक्षिशम्भवाः किमत्र बहुगोक्तेन नृसिंहसदृशो भवेत् मनसा चिन्तितम् यत्तु सतच्चाप्नोत्य संशयम् गर्जन्तम् गर्जयन्तम् निजभुजपटलम् स्फोटयन्तम् हटन्तम् रूप्यन्तम् तापयन्तम् दिवि भुविदितजम् क्षेपयन्तम् क्षिपन्तम् क्रन्दन्तम् रोषयन्तम् दिशि दिशि सततम् संहरन्तम् भरन्तम् वीक्षन्तम् गोर्णयन्तम् शिरनिकरशतैर्दिव्यसिंहम् नमामि ॐ